विशिष्टाद्वैत सिद्धांतो ब्रह्माहम् प्रभुदासोऽस्मि सर्वदा ब्रह्मभावेन भक्तिः कार्या च श्रीहरेः भक्तिः कार्या च श्रीहरेः।